एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रतिनिधिसभायाः ह्यस्तनोपवेशेन आयव्यय विवरणेन सह सम्बद्धम् एतद् विक्रमवर्षीयम् आर्थिक विधेयकम् बहुमतेन, राष्ट्रऋणोत्थापकम् एतद् विक्रमवर्षीयम् विधेयकम् सर्वसम्मत्या च पारितीकृते स्तः। तत्र आर्थिक विधेयके तिस्र संशोधनस्य सूचना प्राप्ता आसन् चेत् राष्ट्र ऋणोत्थापन विधेयकेऽपि तिस्र एव संशोधनस्य सूचना प्राप्ता आसन्। विधेयकद्वयमादृत्य प्राप्तासु संशोधनस्य सूचनासु अर्थमन्त्रिणा स्वीकृतेन प्रस्तावेन विना अन्य संशोधनस्य प्रस्तावा सभाया बहुमतेन अस्वीकृता आसन्। उपवेशे विधेयकद्वयमादृत्य सांसदै उत्थापितानां प्रश्नानाम् उत्तरम् अर्थमन्त्रिणा डॉ स्वर्णिम वाग्ली इत्यनेन प्रदत्तम् आसीत्। एवमेव प्रतिनिधिसभाया ह्य उपविष्टेन द्वितीयोपवेशेन विभिन्नानि चत्वारि विधेयकानि आधृत्य विचार्यन्तामिति निगद्य प्रस्तुताः प्रस्तावाः स्वीकृताः वर्तन्ते। उपवेशेन प्रधानमन्त्रिणा बालेन्द्र शाहस्य पक्षत विधि न्याय संसदीय विषय मन्त्रिणा सोविता गौतम इत्यनया प्रस्तुतम् सार्वजनिक क्रयण सम्बद्धम् एतद् विक्रम वर्षीयम् द्वितीय संशोधन विधेयकम्, अर्थमन्त्रिणा डॉ स्वर्णिम वाग्ले विधेयन प्रस्तुतम् सम्पद शुद्धिकरण सम्बद्धम् एतद् विक्रम वर्षीयम् तृतीय संशोधन विधेयकम् च स्वीकृतम् वर्तते। एवमेव भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रिणा प्रतिभा रावल इत्यनया प्रस्तुतम् सहकारी प्रथम संशोधन सम्बद्धम् एतद् विक्रम वर्षीयम् विधेयकम्, स्वास्थ्य खाद्य स्वच्छता मन्त्रिणा निशा मेहता इत्यनया प्रस्तुतम् स्वास्थ्य विज्ञान प्रतिष्ठान सम्बद्धान कतिपय नेपालादि नियमान् संशोधयितुम् निर्मितम् एतद् विक्रम वर्षीयम् विधेयकम् आधृत्य विचार्यतामिति निगद्य प्रस्तुत प्रस्तावश्च सभया स्वीकृतोऽस्ति। सभामुखेन डोलप्रसाद अर्यालेन ह्य स्वीकृतानि विधेयकानि आधृत्य संशोधनम् कर्तुम् इच्छुकैः सांसदैः संघीय संसद सचिवालयस्य प्रतिनिधिसभायाः विधेयक शाखायाम् संशोधनम् पञ्जीकर्तुम् शक्यते इति ज्ञापितम् आसीत्। सभया स्वीकृतानि विधेयकानि सम्बद्धैः मन्त्रिभिः सभायाः प्रथमोपवेशे प्रस्तुतानि आसन्। प्रतिनिधिसभायाः अपरोपवेशः आषाढ मासस्य अष्टादशे दिवसे बृहस्पतिवासरे पूर्वाह्नस्य एकादश उपराष्ट्रपतिः रामसाहेब प्रसाद यादवः शिक्षा अनुसन्धानेन नवप्रवर्तनेन वैद्युताङ्कन युत प्रविधिना च सह योजनीयेति बलं ददाति। मदन भण्डारी मेमोरियल कलेज इत्याख्यस्य महाविद्यालयस्य रजत महोत्सवस्य अवसरे ह्य काष्ठमण्डपे आयोजिते समारोहे उपराष्ट्रपतिः यादव कृत्रिम बौद्धिकता आधुनिक प्रविधिश्च विद्यालयस्तराद् विश्वविद्यालय पर्यन्तम् शिक्षया सह योजनीयेति अगदत्। पूर्वराष्ट्रपति विद्या भण्डारी कथयति समयानुकूलनीतेः कार्यशैल्याः संघटनात्मकाभ्यासस्य च परिष्कारम् कृत्वा वामान्दोलनम् सुदृढम् विदाय अग्रे वर्धनीयम्। जननेतुः मदन भण्डारिणः पञ्चसप्ततितम जन्मजयन्त्याः अवसरे पूर्वेद्यु काष्ठमण्डपे आयोजितायाम् नेपालस्य वामान्दोलनम् जननेता मदन भण्डारी चेति विषयिण्याम् विचारगोष्ठ्याम् मदन भण्डारी राष्ट्रिय पुरस्कार हस्तान्तरण समारोहे च पूर्वराष्ट्रपतिः भण्डारी वामान्दोलनम् नूतनावसरस्य समाह्वयानाम् च स्थितौ प्राप्तमस्तीति धारणाम् व्यक्तवती। तदवसरे पूर्वराष्ट्रपतिः अवोचत् कस्यचिद् एकस्य निर्वाचनस्य आधारेण जनतायाः बहुदलीय जनवादस्य सान्दर्भिकता वामान्दोलनस्य भविष्यस्य च विषये सहसा निष्कर्षस्य प्रकाशनम् उचितम् न भवति। समारोहे नेकपा एमाले दलस्य अध्यक्षा केपी शर्मा ओली देशजनतयो हितविपरीततया आत्मभिः कथम् विदापि त्रुटिः विहिता नास्तीति न्यश्चिनोत्। समारोहे पूर्व प्रधानमन्त्रिभिः पुष्पकमल दाहाल प्रचण्डेन झलनाथ खनालेन माधव कुमार नेपालेन च सम्बोधनम् विहितम् आसीत्। कार्यक्रमे नेकपा नाम्नो नेपाली कम्युनिष्ट दलस्य संयोजकश्च पुष्पकमल दाहाल प्रचण्ड आवासत राष्ट्रिय स्वाधीनतायाः रक्षायै जनाधिकाराणाम् सम्वर्धनाय च वामपन्थी शक्तिषु सहकार्यस्य आवश्यकता वर्तते। नेकपा दलस्य सहसंयोजकः माधव कुमार नेपालः वामैकता सुदृढीकर्तव्येति बलं प्रदाय युवसन्तते स्कन्दे विपुलं दायित्व त्वं प्राप्तमस्तीति उदैरयत। कार्यक्रमे गत विक्रम वर्षीय मदन भण्डारी राष्ट्रिय पुरस्कार लेखकाय रमेश रुच्छेन्द्राय इत्यस्मै प्रदत्त आसीत्। देशे वर्षाज जलवायु क्रमेण सक्रिय जायमानोस्थिति ज्ञापयन्त्या जलवायु पूर्वानुमान महाशाखया स्व षोडशे अथ च परस्व सप्तदशे दिवसे देशस्य प्रायो भूभागेषु सघनवृष्टेः सम्भावनास्थिति सूचितं वर्तते। महाशाखया ह्यः सायं जलवायु वातावरण सम्बद्धां सूचनां प्रकाश्य मधेश कोशी बागमती गण्डकी लुम्बिनी सुदूर पश्चिम प्रदेशानां पर्वतीय भूभागेषु तराई क्षेत्रस्य कतिपय स्थानेषु च मेघगर्जनेन वज्रपातेन च सह भीषण वृष्टेः कतिपय स्थानेषु सघन वर्षाणां च सम्भावनास्तीति ज्ञापितं वर्तते। इति समाचाराः।